वायुर्यमोऽग्निर्वरुणः शशाङ्कः प्रजापतिस्त्वं प्रपितामहश्च कृष्णाय वासुदेवाय हरये परमात्मने प्रणतः क्लेशनाशाय गोविन्दाय नमो नमः। अस्तु प्रियाः श्रोतृजनाः, स्वागतमस्ति भवताम् समेषाम् एतस्मिन् कार्यक्रमे। तावत् ईश्वरस्य स्तुतेः अनन्तरम् अहम् कार्यक्रमस्य उद्घोषिका निधि तिवारी सर्वेभ्यः श्रोतृभ्यः नमस्करोमि। श्रोतृवृन्दाः, नाना रत्न विभूषितात् सकल सागरात् यथा चतुर्दश रत्नानि असुरैः देवैः च सर्पमन्थनेन जगति प्रकाशे समागतानि, तथैव संस्कृत साप्ताहिकीति कार्यक्रमादपि अस्माकम् सहयोगिनः अपि नानाविधान् विषयान् समादाय निजकृत परिश्रमैः कार्यक्रमेऽस्मिन् प्रकटयिष्यन्ति स्वस्व अनुभागान्। संस्कृत साप्ताहिकीति नामाभिधेयके रत्नयुते मान्याः श्रोतारः, अधुना अवसरो विद्यते प्रसंगानुभागस्य। एनम् प्रभागम् सुमधुरवाण्यै प्रस्तौति अस्माकम् सहयोगिनी रिंकू जोशी।
रात्रि वसते लक्ष्मी कर्मध्ये सरस्वती करमूले तु गोविन्दः प्रभाते करदर्शनम् समुद्रे वसने देवी पर्वतस्तनमण्डिते विष्णुपत्नी नमस्तुभ्यम् पादस्पर्शम् क्षमस्वमि।
अस्तु श्रोतारः, साम्प्रतम् कालः समागतः साप्ताहिकी वार्तायाः, यस्याम् भवन्तः श्रोष्यन्ति समसामयिक विषयान्। एतान् विश्वस्मिन् विश्वे घटितान् विषयान् वार्ताश्च प्रवदति साधना शर्मा।
भारतस्य पटोद्योगः 15.9% वर्धितः। भारतम् समुद्रयान कार्यक्रमस्य विमोचनम् करोति। राष्ट्रपति मुर्मुः, उपराष्ट्रपति धनकड़ः, प्रधानमन्त्री मोदी च सोमवासरे ईद उल जुहा पर्वणः शुभकामनाः प्रदत्तवन्तः। भाजपा दलस्य केन्द्रीय समितिः कोलकातां तत्रत्याम् निर्वाचनानन्तरम् हिंसास्थितिम् निरीक्षितुम् अगच्छत्। प्रधानमन्त्री नरेन्द्र मोदी वाराणसी यात्रायाम् प्रधानमन्त्री किसान सम्मान निधि राशेः 17 राशिम् विमोचितवान्। मणिपुरे गृहमन्त्री अमितशाह मैतेई कुकी दलाभ्याम् सह वार्ताम् विहितवान्।
अयि भोः सुहृत् श्रोतारः, भवताम् जिज्ञासा सम्प्रति समाप्ता, यतोहि ज्ञानविज्ञाननुभागस्य अवधिः कार्यक्रमे पुनरेकवारम् समायाता। इदानीम् एतस्मिन् कार्यक्रमे अस्माकम् सहयोगिनया ऋचा झा इत्यनया साकम् विद्वत् साक्षात्काराय समुपस्थिताः वर्तन्ते दिल्ली विश्वविद्यालयस्य साहित्य विभागस्य प्रोफेसर रंजन त्रिपाठी महाभागाः। आयान्तु श्रोतारः ज्ञानयुतम् साक्षात्कार प्रभागम् श्रुण्वन्ति।
सम्मान्याः प्रियाः श्रोतृवृन्दाः, नमस्कारः। अहमस्मि रचा झा। अद्य अस्माभिः सह उपस्थितो अस्ति दिल्ली विश्वविद्यालयस्य आचार्यः छात्र कल्याणाधिष्ठाता प्रोफेसर रंजन त्रिपाठी वर्यः। नमस्कारः महोदयः।
नमस्कारः
महोदयः। सर्वप्रथमं ज्ञातुमिच्छामि यत् भवान् संस्कृतभाषायाः शिक्षा कुतः प्राप्तवान्।
मदीयं सर्वस्वमध्ययनं काशी हिन्दुविश्वविद्यालये एव सञ्जातम्।
अस्तु, संस्कृतभाषायाः महत्वं, तस्याः वर्तमानसमये प्रासङ्गिकता विषये च भवान् किं चिन्तयति?
संस्कृतभाषायाः महत्वविषये यदि चिन्तयामः वयं तर्हि पश्यतु भवती, यथा कलकल निदादयन्ती गंगा प्रवाहमाना भवति, प्रवाहमानायां तस्यां गंगायाम् अवगाहनं विधाय यथा जनाः स्वं स्वं कृतकार्यं मन्यन्ते, तथैव संस्कृतभाषायाः काचन परम्परा प्राक्कालादेव प्रवाहमाना विद्यते। तस्यां प्रवाहमानायां संस्कृतभाषापरम्परायाम् अथवा संस्कृतज्ञानधारायाम् अवगाहनं विधाय जनाः स्वं संस्कृतकार्यं मन्यन्ते। संस्कृतस्य यन्महत्वम् अस्ति तन्महत्वम् वयम् जानीम एव। वैदिककालादारभ्य अद्यावधि पर्यन्तम् यदि संस्कृत परम्परायाः अवलोकनम् वयम् यदि कुर्मः तर्हि नूनमेव सर्वासु विधासु संस्कृतस्य महत्वम् दरीदृश्यते, तस्य विलक्षणम् ज्ञानम् दृष्टिपथमारोहति। वैदिकसाहित्ये, उपनिषदि, आरण्यके, ब्राह्मणग्रन्थे च याः विद्याः प्रकाशिताः वर्तन्ते, यच्चिन्तनम् तत्र वर्णितम् वर्तते, तच्चिन्तनम् नूनमेव भारतीयानाम् समेषाम् किमपि विशिष्टम् मार्गम् प्रदर्शयति। आधुनिककाले संस्कृतभाषायाः संस्कृतविषयस्य च विशिष्टम् महत्वम् वर्तते। अतः यदि ये छात्राः संस्कृतम् पठन्ति ते नूनमेव भारतम् जानन्ति, भारतवर्षम् जानन्ति। संस्कृतभाषायाः या काचन परम्परा वर्तते ताम् परम्पराम् जानन्ति, समाजम् जानन्ति ते, कथम् केन सह व्यवहारः कर्तव्यः भवति तस्य विषये अपि ये संस्कृतानुरागिणः वर्तन्ते, ये छात्राः वर्तन्ते, ये विद्यार्थिनः वर्तन्ते ते नूनमेव तत्तत् सर्वस्वम् जानन्ति, तद्वदेव आचरन्त्यपि। अतः संस्कृतविषयस्य, संस्कृतभाषायाश्च महत्वम् आसीत्, अस्ति, एवम् यावत् चन्द्रदिवाकरौ तावद् स्थास्यत्यपि।
समीचीनम् महोदयः। मन्येऽहम् यत् वर्तमाने संस्कृताध्ययनरतानाम् छात्राणाम् समक्षे व्यवसाय सम्बद्ध समस्याः वर्तन्ते, तर्हि अस्मिन् विषये भवान् किम् चिन्तयति, अथ च अस्याः किम् समाधानम् भवितुम् शक्यते?
यदि भवती एवम् ज्ञातुम् वाञ्छति चेत् यद् संस्कृत अध्ययनरतानाम् छात्राणाम् समक्षे व्यवसायस्य काचन समस्या वर्तते, अहम् मन्ये तादृशी स्थितिर्नास्ति। ये संस्कृतछात्राः वर्तन्ते, ये विद्यार्थिनः वर्तन्ते, ये संस्कृतस्य अध्ययनम् कुर्वन्ति, तेषाम् पार्श्वे व्यवसायस्य काचन समस्या न वर्तते। अहम् मन्ये भवती पश्यतु, बहूनि संस्थानानि वर्तन्ते यत्र संस्कृत अध्ययने रताः विद्यार्थिनः तत्र शिक्षणकार्यम् कर्तुम् शक्नुवन्ति। बहवः समवायाः वर्तन्ते, ये केम्पस् सेलेक्शन् हेतवे अर्थात् परिसर विश्वविद्यालयस्य परिसर चयनप्रक्रिया या काचन भवति सा प्रक्रिया तैः समवायैः आयोज्यते। प्रक्रियायाम् येषाम् छात्राणाम् विद्यार्थिनाम् चयनम् भवति ते नूनमेव वृत्तिम् प्राप्नुवन्ति। अन्ये च ये प्रशासनिकसेवायाम् गन्तुम् वाञ्छन्ति तेषाम् कृते अपि विशिष्टम् स्थानम् अस्ति। स्नातकम् विधाय संस्कृतस्य छात्राः, बहवः छात्राः तादृशः वर्तन्ते ये प्रशासनिकसेवायाम् गच्छन्ति, सेवाम् च कुर्वन्ति। भारतेऽस्मिन् साम्प्रतिके समाजे संस्कृतस्य यन्महत्वम् दृश्यते तस्य कृते अयम् सर्वकारः प्रतिदिनम् चिन्ताम् करोति। यावन्तोऽपि मन्त्रिणः वर्तन्ते भारतसर्वकारस्य, ते नूनमेव संस्कृतविषये चिन्तयन्ति, कथम् संस्कृतछात्राः वृत्तिम् प्राप्नुवन्तु इति ते चिन्तयन्ति एव। भारतेऽस्मिन् संस्कृतविषयस्य बहवः विश्वविद्यालयाः वर्तन्ते, बहूनि गुरुकुलानि वर्तन्ते, तत्र ये संस्कृतानुरागिणः छात्राः वर्तन्ते, अध्ययनरताः विद्यार्थिनो वर्तन्ते, ते तत्र गत्वा स्वकीयां शिक्षां प्राप्य तत्र वृद्धिम् प्राप्तुम् शक्नुवन्ति। अतः यदि शास्त्राध्ययने छात्राणाम् रतिः स्यात्, गतिश्च स्यात्, तर्हि ते ताश्च नूनमेव वृत्तिम् प्राप्नुवन्ति, प्राप्स्यन्त्यपि। अतः संस्कृतानुरागिणाम् कृते, संस्कृत आराधकानाम् कृते, संस्कृत अध्येतॄणाम् कृते व्यवसायसम्बन्धिनीम् कामपि समस्याम् अहम् न पश्यामि।
अस्तु महोदय, भवान् दिल्ली विश्वविद्यालयस्य छात्र कल्याणाधिष्ठाता अपि। ज्ञातुमिच्छामि यत् छात्राणाम् कल्याणाय अधिष्ठातृरूपेण भवतः कानि प्रयोजनानि सन्ति, किम् एतादृशेषु कार्येषु भवते कदापि संस्कृतग्रन्थाः सहायकाः सिद्धाः?
अस्तु, दिल्ली विश्वविद्यालयस्य छात्र कल्याणाधिष्ठाता रूपेण किम् किम् कर्तुम् शक्नोम्यहम् इति भवती ज्ञातुम् इच्छति इति अहम् मन्ये। एवमस्ति, तत्र दिल्ली विश्वविद्यालये अध्ययनरताः ये याश्च छात्रछात्राः वर्तन्ते तेषां कृते बहवः प्रकल्पाः छात्रदृष्टाता कार्यालये प्रचलन्ति। तेषु प्रकल्पेषु तत्र ये निर्धनाः छात्राः वर्तन्ते तेषां कृते अपि प्रकल्पः अस्ति, कथं शुल्कं न्यूनं भूयात् इति तस्य कृते कश्चन नियमः वर्तते। विश्वविद्यालयेऽस्मिन् अध्ययनार्थं विविधप्रदेशात् विद्यार्थिनः समागच्छन्ति, तत्र तादृशाः अपि विद्यार्थिनो भवन्ति येषां माता पितरौ दिवंगतौ, तेषां कृते अपि विश्वविद्यालयेऽस्मिन् कश्चन प्रकल्पः अस्ति। स प्रकल्पः छात्र अधिष्ठाता कार्यालये एव स प्रकल्पः प्रचलति, तेषां कृते तत्र शुल्करहितव्यवस्था काचन वर्तते, तत्र छात्रावासेऽपि तेषां स्थानं भवति। एतादृशं कार्यं छात्रकल्याण अधिष्ठाता कार्यालये एव भवति प्रचलति वा।
यथा वयं जानीमः यत् अधुनैव अन्ताराष्ट्रिय योग दिवसः सञ्जातः, तत्र योग दिवसस्य प्रकल्पना प्रधानमन्त्रिणा कृता, तर्हि अस्मिन् विषये भवतः किं मन्तव्यम्?
अन्ताराष्ट्रिय योग दिवसस्य विषये भवती किञ्चित् ज्ञातुं वाञ्छति। साम्प्रतम् एव अन्ताराष्ट्रिय योग दिवसः सम्पन्नः सञ्जातः, मन्येऽहं स च दिवसः दशमः अन्ताराष्ट्रिय योग दिवसः आसीत्। योगस्य परम्परां यदि अवलोकयामः वयं तर्हि एषा परम्परा प्राक्कालादेव प्रवहति। यदि भगवन्तं पतञ्जलिं वयं पश्यामः तस्य एका विलक्षणा कृतिः वर्तते, सा च कृतिः योगसूत्रनामधेया काचन कृतिः वर्तते। तत्र पतञ्जलिमहोदयेन यः ग्रन्थः प्रणीतः तस्मिन् ग्रन्थे योगस्य बह्व्यः चर्चाः वर्तन्ते, योगविषये ते चिन्तितवन्तः वर्तन्ते, बहु लिखितवन्तः वर्तते। योगः जीवने आगच्छतु, यदि योगस्य स्थानम् अस्माकं हृदि स्यात् तर्हि नूनमेव अस्माकं जीवनं साफल्यं भविष्यति। यदि रोगरहितं जीवनं कश्चनपि काचनपि वाञ्छति चेत् योगस्य यत् नियमः वर्तते स च नियमः हृदि स्थातव्यो वर्तते। यदि जनाः योगं स्वजीवने स्थापयन्ति ते नूनमेव सुखिनो भविष्यन्ति, तेषां जीवने कस्यचिदपि रोगस्य अंशोऽपि तत्र न भविष्यति, न भवितुं शक्नोति इति अहं मन्ये। योगश्चित्तवृत्तिनिरोधः, योगः कर्मसु कौशलम्, एतत् सर्वं ज्ञानम् अस्माकं संस्कृतपरम्परायामेव वर्तते। कथं जनाः राष्ट्रस्य कृते समाजस्य कृते स्वकीयं सर्वस्वं त्यजन्ति, एतस्यापि ज्ञानम् अस्माकं संस्कृतं प्रददाति। संस्कृतस्य विलक्षणं महत्वम् अस्ति, संस्कृतं भारतस्य आत्मा अस्ति, भारतस्य जीवनम् अस्ति। येऽपि भारतवासीयाः वर्तन्ते तेषां कृते संस्कृतं नूनमेव एकं विशिष्टं मार्गं प्रददाति। विशिष्टकर्मणि जनानां प्रवृत्तिः कथं स्यात्, ते आदर्शयुक्तं मार्गं कथमनुसरन्तु, एतेषां सर्वेषां कृते संस्कृतं किमपि पाठेयं प्रददाति।
अस्तु महोदयः, धन्यवादः यद् भवान् स्वसमयम् अस्मै साक्षात्काराय प्रदत्तवान्। धन्यवादः।
धन्यवादः।
प्रियाः समरसिकाः श्रोतृगणाः, संस्कृत सम्बद्धाः वार्ताः प्रति सर्वे जिज्ञासवः भवन्ति, यतोहि एभिः वार्ताभिः, कार्यशालाभिः इत्यादिभिः संस्कृत भाषा संवर्धनं, ज्ञाने च विस्तारम् अनुभवं च याति। ततश्च अस्य अंकस्य संस्कृत दिग्दर्शनं प्रस्तूयते सुषमा कुमारी इत्यनया।
श्री लाल बहादुर शास्त्री राष्ट्रीय संस्कृत विश्वविद्यालयेन विज्ञप्त्यां संसूचितं यत् भारत सर्वकारस्य शिक्षा मन्त्रालयान्तर्गतस्य उच्च शिक्षा विभागस्य भाषा विभागेन एकस्य आदेशस्य द्वारा राष्ट्रीय शिक्षा नीति विगत चतुर्षु वर्षेषु लिखितानां परिकल्पानां क्रियान्वयनाय भारतीय भाषाणां संवर्धनाय तासां समग्र विकासाय बहु विषयक विकासाय च भारतीय भाषा समिति इत्याख्या काचित् समितिः संस्थापिता। राष्ट्रपति सम्मानित प्रतिनव बाणभट्ट पंडित मोहनलाल शर्मा पाण्डेयस्य परिचयात्मकः पद्मिनी इति संस्कृत उपन्यासः संपूर्ण उत्तर प्रदेशस्य सर्वेषु विश्वविद्यालयेषु पाठ्यक्रमे निर्धारितः।
शोभनम् संस्कृत जिज्ञासवः मे बान्धवाः, शास्त्रं बालेन विना अपूर्णम् एवं मन्यते। पंचतंत्र हितोपदेश इत्यादयः ग्रंथाः बालेभ्यः एव विरचिताः। बालाः भविष्य निर्मातारः वर्तन्ते। बालानामेव मनोरंजनार्थम् एतस्मिन् कार्यक्रमे बालवल्लरी सुनिश्चिता प्रतिष्ठिता च जाता। अस्मिन् प्रभागे पुरुषोत्तम शर्मणा कथ्यते एका रुचिकरा मनोज्ञा च कथा। आगच्छन्तु तर्हि मिलित्वा शृणुमः प्रभागम् अमुम्।
बालाः अद्यतन कथा अस्ति अश्वस्य स्वामिनिष्ठा। मध्याह्न समयः, सर्वत्र नीरवता, मार्गः अपि निर्मनुष्यः। तदा एव कोऽपि अश्वः मार्गे धावति, तस्य एकः पादः व्रणितः। सः कष्टेन वेदनां सहते, तथापि त्रिभिः पादैः यथा कथमपि सः धावति। तस्य पृष्ठे उपविष्टः अस्ति तस्य स्वामी, शस्त्रप्रहारैः व्रणितः। अविरतं धावनेन अश्वः अतीवः शान्तः जायते, सः वेगेन धावितुम् असमर्थः भवति, अतः मन्दं धावितुम् प्रारभते, परं नैव विरमति सः। अधुना ग्रामः समीपे एव, तत्र स्वामिनं नयामि संरक्षयामि च, परं मार्गे विस्तीर्णः जलप्रवाह, अधुना किं करणीयम् इति चिन्तयति अश्वः। क्षीणः व्रणितः च अश्वः तम् उल्लङ्घयितुम् असमर्थः, किन्तु समयः अल्पः, कथमपि प्राणान् अविगण्य सः जलप्रवाहम् उल्लङ्घयति, अपरतीरं गत्वा भूमौ पतति। आघातेन स्वामी अपि भूमौ निपतति। किञ्चित् कालानन्तरं स्वामी संज्ञां लभति, सः अश्वस्य समीपे आगच्छति, स्नेहेन अश्वस्य शरीरं स्पृशति। भूमौ पतितः अश्वः अपि स्वामिनं पश्यति, समाधानेन प्राणान् त्यजति च। कः एषः नृपः ज्ञायते वा? सः एव महाराणा प्रतापः, राजस्थान राज्यस्य मेवाड़ प्रदेशस्य नृपश्रेष्ठः। कः एषः स्वामी भक्तः अश्वः? एषः चेतकः नाम अश्वः, अश्वेषु आदर्शभूतः सः। तस्य स्मृत्यर्थं निर्मितं समाधिस्थलं मेवाड़ प्रान्ते विराजते। धन्यः स्वामी राणा प्रतापः, धन्यः च स्वामी भक्तः अश्वः चेतकः।
श्रोतारः बालवल्लरी प्रभागात् पश्चादेव जनकल्याणाय सम्यक बोधाय च भारतस्य रमणीय भाषाणां शब्दगुम्फनं श्रेष्ठ निष्पादनेन साकं सम्पादयति अस्मत् सहयोगिनी निधिः झा।
प्रथमं वाक्यमस्ति, प्रत्येकस्मिन् वर्षे जून मासस्य एकविंशे दिनांके अन्ताराष्ट्रिय योग दिवसः आचर्यते। हिन्दी में, हर साल 21 जून को अंतर्राष्ट्रीय योग दिवस मनाया जाता है। नेपाली में, प्रत्येक साल 21 जून मा अंतर्राष्ट्रीय योग दिवस मनाउने गरिन्छ। द्वितीयं वाक्यमस्ति, योगेन शारीरिकम अथ मानसिकम रूपेण स्वस्थः भवितुं शक्यते। हिंदी में, योग के माध्यम से शारीरिक और मानसिक रूप से स्वस्थ रहा जा सकता है। नेपाली में, योग को माध्यम द्वारा शारीरिक र मानसिक रूप मा स्वस्थ रहन सकिन्छ। धन्यवाद।
शोभनम् तावत् श्रोतारः, कार्यक्रमम् अवसानम् प्रतियाति। आशास्ति यत् संस्कृत साप्ताहिकीति कार्यक्रमस्य अयम् नूतनः अङ्कः भवद्भ्यः सर्वेभ्यः रोचते। आगामि सप्ताहे नवीन विषयान् उररीकृत्य अत्रैव एतस्मिन्नेव काले पुनर्मिलामः। भवन्तः सर्वे स्वीय प्रतिक्रियाः nsdsanskrit@gmail.com इत्यत्र सम्प्रेष्य अस्मान् प्रेरयन्तु कृपया। तावत्पर्यन्तं नमो नमः। जयतु संस्कृतं, जयतु भारतम्।